अथ नवग्रहमन्त्राः ॐ मा सत्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन्नो अग्न्यम् धूतम् वृणीमहे होतारम् विश्ववेदसौ अस्त्रयज्ञः ससकृतौ तद्रुद्राय प्रचेतसे मेधुस्तमायतव्यसे ओतेमसन्तमगुम् हृदे आप्याय स्वसमेतु ते विश्वतः स्तोमवृष्णयो भवावाजः ससङ्गधे अस्तु मे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजेः घोरीमिमायसलिलालितक्षत्यैकपदे द्विपदे चातिरुष्पदे हस्तापदे नवपदे बभूषे सहस्रा अक्षर परमे व्योवन् अग्निर्होर्धाधिव खगुत्पते पृथिव्या अयम् अपागुम् रेतागुंसि जिन्वते शोना पृथिवी भवानुक्षरा निवेशिने इच्छानस्तर्म सप्रथाः क्षेत्रस्य पतिना वयगुम् हितेनेव जयामसे यामस्त्वम् पोषयित्र वातनो मृणा तेतृसे उद्भुज्यस्वाज्ञे प्रजागुष्येमिष्टा पूर्ते सगम् त्रिदेधामयम् च पुनः कृण्वग्स्वापितरम् विवानमन्वातागम् तेत्वैतन्तुमेतौ इदम् विष्णुरुचक्रमे त्रेधा निदते पदौ समूढमस्य पागुम् सुरे सहस्रसेदुषा पुरुषः सहस्राक्षः सहस्रपात् सभौमिम् विश्वतो वृत्वा अत्यधिष्टर्दशाङ्गुलौ बृहस्पते अतियधर्हो अर्ह अद्युमद्विभाति कृतमज्जनेषु यद्येत यच्छव सत्त प्रजात तदस्मासु द्रविणम् देहि चित्रो इन्द्रमरुत्मह्य पाहि सोमम् यथा चार्याते अपि वस्तुतस्य तव प्रणीति तव सोरसर्मन्नापि भासन्ति कवयस्तु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विसेवतः सुरुचो वेद आवः स बुद्ध्रियापुपमा अस्य भिस्ता सदस्य यो निमसदस्य विवः शुक्रन्ते अन्यज्जदन्ते अन्यद्विषुरूपे अहने जौरिवासे विश्वा हि मायावसि स्वधावो भद्राते पोषन्निहरातिरस्तु इन्द्राणीमासु नारिषु सुपत्ने महमस्रवो न ह्यस्यापरञ्जनजरसामरते पतिः इन्द्रम् वो विस्पतः परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ शमग्निरग्निभिस्करस्तन्नस्त मधुसूर्यः शम्बातो वात्रप अपसृधः यमाय सोमगुम् सुनुत यमाय दुहुता अभिः यमगुम्ह यज्ञो गच्छत्यज्ञदोतो अरङ्कृतः प्रजापतेन त्वरेताञ्जन्यो भिस्वा जातानि परिता बभूव यत्कामास्ते दुहमस्तन्नो अस्तु वयगुस्यामपतयोरयेणाम् कया नश्चित्र आभुवतो ते सदा वृधस्तका कया तस्तया वृता आयङ्गौ पुस्तकमे दशनम् मातरम् पुनः पितरम् च वयम् सुवः नमो अस्तु सर्पेभ्यो ये केत पृथिवे मनो हे अन्तरिक्षे ये दिवितेभ्यः सर्पेभ्यो नमः हेतुम् कृण्वन्न केतभेपे च मर्या अपेशे संषद्विरदायथाः ब्रह्मा देवानाम् पदवीक्तवेदाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् सेनो गृत्रा धागुस्वतिर्वना धागुस्वोमः पवित्र मत्येतिरेभन् सचित्रचित्रम् चितयन्तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् वयिम् पुरवीरम् बृहन्तौ चन्द्रश्चन्द्राभिगृणिते यमस्व आदित्याय च सोमाय मङ्गलाय बुधाय च गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः ॐ शान्तिश्चान्तिश्चान्तिः।